नमस्कारः अद्य वैयाकरणभूषणसारे धात्वर्थप्रकरणे प्रथमः पाठः जनवरी मासस्य दशमः दिनाङ्कः मङ्गलश्लोकात् आरम्भं कुर्मः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्य ग्रन्थस्य मङ्गलश्लोकः अस्ति श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। एतं श्लोकम् अग्रे पठामः। अद्य किञ्चित् परिचयः। व्याकरणं शब्दशास्त्रम् इति तु सर्वैः ज्ञायते। शब्दान् अधिकृत्य प्रवर्तितम् इदं शास्त्रम्। किं प्राधान्यं व्याकरणम् इति विषये बहुत्र बहु लिखितमस्ति। अयमेकः श्लोकः वाक्यपदीयात् उद्धृतः। अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्, तत्त्वावबोधशब्दानां नास्ति व्याकरणाद्रते। अर्थप्रवृत्तिः यत्र यत्र यत्किमपि यः कोऽपि पदार्थः विद्यते तस्य यत् तत्त्वं वस्तुतः ज्ञानं तत् शब्दम् आश्रित्य एव भवति। यत्किमपि वस्तु वयं ज्ञातुमिच्छामः चेत् शब्दान् आश्रित्यैव तस्य ज्ञानं सम्भवति। तत्त्वावबोधः शब्दानां किं तत्त्वम् अथवा शब्दज्ञानं व्याकरणादृते नास्ति। व्याकरणं विना शब्दानां ज्ञानं न भवति, शब्दान् विना पदार्थानां ज्ञानं न भवति। अतः सर्वेषां पदार्थानां ज्ञाने व्याकरणस्य ज्ञानम् अपेक्षितं भवति। अत एव काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इत्युच्यते। सर्वेषां शास्त्राणाम् अध्ययने व्याकरणशास्त्रम् उपयोगि भवति, तथैव काणादम् इत्यनेन तर्कशास्त्रम् अपि उपयोगि भवति। व्याकरणशास्त्रे विषयः शब्दः, अर्थात् शब्दानां विषये चर्चा क्रियते व्याकरणशास्त्रे। कीदृशी चर्चा क्रियते, किं किं पठामः वयं व्याकरणे इति पश्यामः चेत्, के साधुशब्दाः के असाधवः, शब्दानां साधुत्वज्ञानं व्याकरणेन भवति। यथा रामः इति साधुशब्दः, रामैः इति साधुशब्दः, रामेभिः इति यदि वयं प्रयुञ्ज्महे तर्हि असाधुशब्दः। एवं साधुशब्दस्य असाधुशब्दस्य च ज्ञानं व्याकरणे विचार्यते। कतिविधानि पदानि कीदृशानि भवन्ति, भाषायां संस्कृतभाषायां कतिविधानि पदानि सन्ति। सुप्तिङन्तं पदं, सुबन्तं तिङन्तम् इति द्विविधं पदं, तत्र पुनः अन्य विभागाः सन्ति, कृदन्ताः, सन्नन्ताः, तिङन्ताः, तद्धितान्ताः इत्यादि। पदानां प्रकृतिप्रत्ययविभागः कथं भवति, रामः इत्यत्र राम इति प्रकृतिः, सु इति प्रत्ययः, पुनश्च रामशब्दे रम् इति धातुः प्रकृतिः, घञ् इति प्रत्ययः। एवं प्रकृतिप्रत्ययविभागः व्याकरणशास्त्रे विचार्यते। साधुपदानां सिद्धिः कथं भवति, रम् धातोः घञ् इति प्रत्यये योजिते आदिवृद्धिः राम अ, पुनश्च तत्र सुप्रत्ययः भवति, ऋत्वं भवति, विसर्गः भवति, तेन रामः इति पदं निष्पाद्यते। एवं साधुपदानां सिद्धिः कथं भवति अथवा प्रक्रिया का इत्यपि व्याकरणे विचार्यते। केषु अर्थेषु केषां पदानां प्रयोगः भवति इत्यपि विचारः। एते सर्वेपि विचाराः व्याकरणशास्त्रे क्रियन्ते। अस्माभिः एतावता ये ग्रन्थाः अधीताः, कौमुदी, सिद्धान्तकौमुदी वा भवतु, काशिका वा भवतु, महाभाष्यम्, एवम् अन्येऽपि ये ग्रन्थाः, तेषु एतादृशी चर्चा एव दृश्यते। कारकं समासः एकशेषः इत्यादिषु प्रकरणेषु व्याकरणस्य अध्ययनम् अस्माभिः एतावता कृतम्। एतत् सर्वमपि एषः सर्वोऽपि व्याकरणशास्त्रस्य विषयः भवति। व्याकरणग्रन्थाः तत्र मूलभूता अष्टाध्यायी, पाणिनिविरचिता अष्टाध्यायी, अष्टस्वाध्यायेषु प्रायः उपचतुस्सहस्रं सूत्राणि, एतान्येव व्याकरणस्य आधारभूतानि। यद्यपि अन्यानि व्याकरणानि सन्ति तथापि अद्यत्वे पाणिनीयं व्याकरणमेव सर्वत्र आद्रियते। तत्र मूलशिलारूपेण भवति अष्टाध्यायी। अष्टाध्याय्याः वृत्तिग्रन्थाः सन्ति, यत्र सूत्राणाम् अर्थः कः, किम् उदाहरणं, किं प्रयोजनम् इत्यादि विचार्यते। वृत्तिग्रन्थेषु महाभाष्यं प्रथमं, वार्तिकसहितं महाभाष्यं, काशिका, शब्दकौस्तुभः, अष्टाध्यायी प्रथमावृत्तिः इत्यादयः ग्रन्थाः अष्टाध्याय्याः क्रमेणैव सूत्राणां विचारं कुर्वन्ति। सूत्राणां वृत्तिः, वृत्तिः नाम सूत्रार्थः, उदाहरणम् इत्यादि प्रदर्शयन्ति। अन्योपि सम्प्रदायः अस्ति व्याकरणाध्ययने प्रक्रियादृष्ट्या सूत्राणाम् अध्ययनम्। अस्मिन् क्रमे मूर्धन्यः ग्रन्थः, भट्टोजीदीक्षितविरचिता सिद्धान्तकौमुदी, अन्येऽपि ग्रन्थाः सन्ति, रूपावतारः, प्रक्रियाकौमुदी इति रामचन्द्रदीक्षितेन विरचिता, नारायणभट्टतिरिणा विरचितं प्रक्रिया सर्वस्वम् इत्येते सर्वे ग्रन्थाः प्रक्रियादृष्ट्या सूत्राणां विचारं कुर्वन्ति। प्रकरणेषु सूत्राणि सङ्गृहीतानि, अष्टाध्याय्याः क्रमं परिवर्त्य प्रक्रियाम् आधृत्यैव सूत्राणां प्रकरणेषु सङ्ग्रहः कृतः, तेन क्रमेण सूत्रार्थः प्रक्रिया च अधीयते एतेषु ग्रन्थेषु। पुनश्च सन्ति अन्ये प्रकरणग्रन्थाः, लिङ्गानुशासनम् इत्यत्र लिङ्गानां विचारः क्रियते, धातुवृत्तौ धातूनां रूपाणां विचारः क्रियते, परिभाषेन्दुशेखरे व्याकरणशास्त्रे याः परिभाषाः उपयुज्यन्ते तासां विचारः, समासचक्रं, कारकचक्रम् इत्यादि व्याकरणशास्त्राङ्गतया तत्तत् प्रकरणमाश्रित्यापि ग्रन्थाः प्रवर्तिताः। एते सर्वेपि ग्रन्थाः अस्माभिः अधीताः, भागशः वा अधीताः। एषा चर्चा शब्दविषयिणी अस्ति, अन्यविधा अपि शब्दविषयिणी चर्चा प्रवर्तते। शब्दः नाम कः, शब्दानां विषये के शब्दाः, कति विधाः, कीदृशाः इत्यादि ज्ञातं, किन्तु शब्दः नाम कः, शब्देन अर्थः कथं प्रतीयते। वयम् एकं शब्दं शृणुमः, तस्मात् शब्दात् कः अर्थः अस्माभिः बोध्यते, कथं बोध्यते, कीदृशाः अर्थाः प्रकृत्या प्रत्ययेन च बोध्यन्ते। इदानीं पठति इति वदामः, तत्र पठ इति धातोः कः अर्थः, ति इति प्रत्ययस्य कः अर्थः, शब्दबोधः इति विचारः अस्ति। शब्दबोधः, शब्दात् अर्थस्य अवबोधः अथवा अवगमनं शब्दबोधः इति पदेन उच्यते। शब्दबोधः कः, कथं भवति शब्दबोधः, शब्दबोधे सहकारीणि कारणानि कानि इत्येते प्रश्नाः अपि विचार्यन्ते, न केवलं व्याकरणशास्त्रे अपि तु न्यायशास्त्रे, मीमांसाशास्त्रे च एते सर्वेपि विचाराः कृताः सन्ति, सम्यक् विचारिताः सन्ति इमे प्रश्नाः। किं कारणम् इति पश्यामः चेत्, प्रथमविधा या चर्चा अस्ति, शब्दस्य प्रक्रियाविषयिणी चर्चा, प्रकृतिप्रत्ययाः, शब्दस्वरूपम् इत्यादि, तत्सर्वमपि पाणिनीयसूत्रैरेव सिद्ध्यति, तत्र पाणिनिरेव प्रमाणम्, तत्र नास्ति वैमत्यम्। किन्तु शब्दः कः, शब्देन अर्थः कथं बोध्यते इत्यादि यदि चिन्तयामः, तदा सर्वेषु शास्त्रेषु अयं विचारः प्रवर्तितः, यतोहि अस्माकं एतेषु सर्वेषु शास्त्रेषु शब्दः प्रमाणत्वेन अङ्गीक्रियते. यत्र कुत्रापि ज्ञानं यदा ज्ञानं नाम प्रमेयः तत्त्वज्ञानस्य विषयः यदा क्रियते तत्र ज्ञानं प्राप्तुं कानिचन प्रमाणानि भवन्ति. यथा प्रत्यक्षप्रमाणं, प्रत्यक्षं दर्शनेन श्रवणेन वा किञ्चित् ज्ञानम् उत्पद्यते. अनुमानम् अस्ति, कदाचित् अनुमानेन वयं ज्ञानं प्राप्नुमः. उपमानं, शब्दः, तत्र शब्दः इत्येतत् प्रमाणं सर्वैः आस्तिकदर्शनैः स्वीक्रियते. बौद्धदर्शनं जैनदर्शनम् अतिरिच्य अन्यैः सर्वैः शास्त्रैः शब्दः प्रमाणत्वेन स्वीक्रियते. अतः सः शब्दः नाम कीदृशः, तस्माद् अर्थबोधः कथं भवति इत्येते अंशाः सर्वेषु शास्त्रेषु विचारिताः सन्ति. तत्र व्याकरणग्रन्थान् पश्यामः चेत् पूर्वं ये ग्रन्थाः दृष्टाः तान् अतीत्य दार्शनिकग्रन्थाः अथवा आर्थिकग्रन्थाः इति केचन ग्रन्थाः सन्ति, यत्र मुख्यतया एते अंशाः विचार्यन्ते. तेषु ग्रन्थेषु प्रथममस्ति महाभाष्यम्. महाभाष्ये प्रक्रियाविषयिणी चर्चा अपि अस्ति, अर्थविषयिणी चर्चा अपि अस्ति. अतः सर्वेषां व्याकरणग्रन्थानां मूलभूतं प्रमाणभूतं महाभाष्यम्. ततः वाक्यपदीयं, भर्तृहरिणा विरचितः अयं ग्रन्थः. वैयाकरणसिद्धान्तकारिकाः इति भट्टोजीदीक्षितैः विरचितः काश्चन कारिकाः. वैयाकरणभूषणं तथा वैयाकरणभूषणसारः इति कौण्डभट्टेन विरचितं ग्रन्थद्वयम्. मञ्जूषा, वैयाकरणसिद्धान्तबृहन्मञ्जूषा, वैयाकरणसिद्धान्तलघुमञ्जूषा, परमलघुमञ्जूषा इति त्रयः ग्रन्थाः नागेशभट्टेन विरचिताः. एते सर्वेपि ग्रन्थाः विशिष्य अर्थविषयकम् अर्थविषयकान् विचारान् एव प्रस्तुवन्ति. न तत्र सूत्रं वा सूत्रार्थः अथवा शब्दानां सिद्धिः कथम् इत्यादि न विचार्यते. कः अर्थः, धातोः कः अर्थः, प्रातिपदिकस्य कः अर्थः, प्रत्ययस्य कोऽर्थः, कथम् अर्थावबोधः भवति इत्यादि विचाराः चर्च्यन्ते. एते ग्रन्थाः दार्शनिकग्रन्थाः अथवा आर्थिकग्रन्थाः इति उच्यन्ते. एतेषु आर्थिकग्रन्थेषु सर्वेषु विचारिताः अंशाः प्रायेण समानाः भवन्ति. स्फोटः इत्यस्ति नाम शब्दः. शब्दस्यैव यस्मात् अर्थः स्फुटति, स्फुटति अर्थः अस्माद् इति स्फोटः नाम शब्दः. शब्दस्यैव विशिष्टमेकं स्वरूपं स्फोटः इत्युच्यते. तस्य स्वरूपं किम् इति विचार्यते. वृत्तिविचारः नाम शब्दस्य अर्थस्य च सम्बन्धः. साधुत्वं, पदानां साधुत्वम् अपभ्रंशः. बौद्धपदार्थः, कदाचित् शशशृङ्गम् इत्युच्यते. शशस्य शृङ्गं न भवति इति सर्वे जानीमः. अतः शशशृङ्गम् इति पदमस्ति किन्तु पदार्थः नास्ति. वस्तुतः कस्यापि शशस्य शृङ्गं न भवति, तथापि शशशृङ्गम् इति यदा वदामः तदा बुद्धौ कश्चिदर्थः स्फुरत्येव. यद्यपि वस्तुतः सः पदार्थः नास्ति तथापि बुद्धौ पदस्य श्रवणेन कश्चिदर्थः स्फुरति, सः बौद्धपदार्थः इत्युच्यते. शाब्दबोधः, तत्सहकारिकारणानि. धात्वर्थः, धातोः कः अर्थः, लकाराणां कः अर्थः, सुवर्थः, सुप्रत्ययानामर्थः, प्रातिपदिकानाम् अर्थः, समासः, समासे शक्तिः, नैयादीनाम् उपसर्गाणां कः अर्थः इत्यादयः अंशाः प्रायेण एतेषु सर्वेषु ग्रन्थेषु विचार्यन्ते. सन्देहः अवगम्यते वा?
अवगम्यते.
प्रश्नाः सन्ति? केकणमा
इल्ल पुरीदु का पुरीदु.
क्रियते कोऽपि प्रश्नः अस्ति चेत् तदैव पृच्छतु चिन्ता नास्ति इत्युक्ते मध्ये अपि प्रष्टुं शक्यते अथवा अहं मध्ये यदा समयं ददामि तदापि प्रष्टुं शक्यते किमपि न अवगम्यते चेत् कृपया तत्रैव पृच्छतु अयं वैयाकरणभूषणसारः एतादृशः आर्थिकग्रन्थः अथवा दार्शनिकग्रन्थः अतः तस्य अध्ययनात् पूर्वं व्याकरणशास्त्रे प्रमुखाणाम् आर्थिकग्रन्थानां किञ्चित् परिचयं प्राप्नुमः वस्तुतः व्याकरणशास्त्रे प्रथमः आर्थिकग्रन्थः नाममात्रेण ज्ञातः व्याडिकृतः सङ्ग्रहः इति महाभाष्ये यदा पस्पशाह्निकं पठामः तदा भाष्यकारः वदति सङ्ग्रहे एतत् प्राधान्येन विरचितम् नित्यशब्दः कार्यो वेति शब्दः नित्यः वा कार्यः वा इत्यादिविषये सङ्ग्रहनामके ग्रन्थे बहु विस्तृता चर्चा कृता इति भाष्यकारेण उच्यते तदेव लक्षश्लोकात्मकः अयं ग्रन्थः इति उच्यते किन्तु अधुना नोपलभ्यते तस्य केवलं नाम एव जानीमः तदपि महाभाष्यस्य उल्लेखाधारेणैव ज्ञायते वस्तुतः सः ग्रन्थः इदानीं नोपलभ्यते शब्दनित्यत्वसाधनं तस्य प्रमुखः विचारः इति तदेव उल्लेखद्वारा एव ज्ञायते कालः अयं व्याडिः इति कश्चन महर्षिः पाणिनेः समकालिकः इति प्रतीतिः अस्ति किन्तु ग्रन्थः नोपलभ्यते इत्यतः तद्विषये अधिकं वक्तुं न शक्यते महाभाष्यात् पूर्वकालिकम् इति तु स्पष्टमेव भाष्ये उल्लिखितत्वात् ततः पूर्वम् अयं ग्रन्थः आसीत् ततः महाभाष्यं तु अस्ति सः ग्रन्थः एव प्रायः सर्वेषामपि आर्थिकविचाराणां मूलं महाभाष्योत्तरम् आर्थिकग्रन्थेषु प्रधानः ग्रन्थः भर्तृहरिविरचितं वाक्यपदीयम् इति समुपलब्धेषु आर्थिकग्रन्थेषु इदं प्राचीनतमं प्रमाणभूतञ्च सर्वेऽपि वैयाकरणाः महाभाष्यस्य व्याख्यातारः दीक्षिताः काशिकाकारः नागेशभट्टः सर्वेऽपि वैयाकरणाः भर्तृहरिं प्रमाणत्वेन स्वीकुर्वन्ति तस्य कारिकाः स्वग्रन्थेषु उल्लिखन्ति च काण्डत्रयी इत्यपि उच्यते वाक्यपदीयम् यतोहि तत्र त्रीणि काण्डानि सन्ति ब्रह्मकाण्डं पदकाण्डं वाक्यकाण्डम् इति वाक्यं पदं वाक्यपदीयं तेनैव तस्य नाम अस्ति आदौ ब्रह्मकाण्डे शब्दब्रह्मणः स्वरूपं विचार्यते शब्दः एव ब्रह्म इति भर्तृहरिः प्रतिपादयति तदेव स्फोटः स्फोटरूपः इति तस्य किं स्वरूपम् इत्यादि विचार्यते पदकाण्डे पदानां विषये चर्चा वाक्यकाण्डे वाक्यानां विषये चर्चा इत्येवं काण्डत्रये विचारः कृतः कारिकारूपः अयं ग्रन्थः इत्युक्ते केवलं श्लोकरूपेण विरचितः ग्रन्थः तस्य स्वोपज्ञटीका विद्यते भर्तृहरिणा विरचिता एव टीका भागशः लभ्यते अन्यैरपि कैश्चित् टीकाः विरचिताः सन्ति कैयटादारभ्य सर्वेऽपि वैयाकरणाः भर्तृहरिम् उल्लिखन्ति प्रमाणत्वेन मन्यन्ते च ब्रह्मणः परब्रह्म इति यद्वदामः तस्य शब्दरूपत्वं स्फोटविचारः शब्दार्थस्वरूपम् इत्यादयः अंशाः वाक्यपदीये विचारिताः सन्ति तस्य कालविषये ऐकमत्यं नास्ति प्रायः चतुर्थशतके न्यवसद्भर्तृहरिः इति उच्यते भर्तृहरिः इति नाम्ना एव भर्तृहरेः नाम्ना बहवः ग्रन्थाः उपलभ्यन्ते नीतिशतकं शृङ्गारशतकं वैराग्यशतकम् इति सुभाषितशतकत्रयमस्ति अन्येऽपि केचन ग्रन्थाः सन्ति एतेषां सर्वेषामपि रचयिता एक एव भर्तृहरिः वा भिन्नाः वा इत्यत्रापि महती चर्चा अस्ति वाक्यपदीयकारः भर्तृहरिस्तु प्रायः सामान्यशके चतुर्थशतके न्यमसत् इति सामान्यतः अभिप्रायः. तत्रापि मतभेदाः विद्यन्ते. एवं सङ्ग्रहः आसीत् नोपलभ्यते. पातञ्जलं महाभाष्यं क्रिस्तपूर्वं प्रायः प्रथमशतमानम् इति तस्य कालः. एतत्तु सामान्यशके चतुर्थं शतकं. ततः परम् अयं दुःखस्य विचारः यत् कोऽपि आर्थिकग्रन्थः प्रायः सहस्रं वर्षाणि यावत् कोऽपि दार्शनिकग्रन्थः वा आर्थिकग्रन्थः वा प्राधान्येन नोपलभ्यते. एतदनन्तरम् अग्रिमः प्रयत्नः अस्ति भट्टोजीदीक्षितेन विरचिताः वैयाकरणमतोन्मज्जनकारिकाः इति. वैयाकरणसिद्धान्तकारिकाः इत्यपि उच्यते. आर्थिकसिद्धान्तप्रतिपादिकाः चतुस्सप्ततिः कारिकाः. बहु लघुग्रन्थः, वाक्यपदीयं बृहत्प्रमाणस्य ग्रन्थः. तत्र प्रायः सप्तशतादधिकाः कारिकाः सन्ति. अत्र तु केवलं चतुस्सप्ततिः एव कारिकाः. सिद्धान्तस्यैव प्रतिपादनं क्रियते आसु कारिकासु. संक्षेपेण, अत्यन्तं संक्षेपेण केवलं सिद्धान्तः प्रतिपाद्यते. व्याख्यानं विना न अवगम्यते एव. स्वतन्त्रग्रन्थतया अस्य अध्ययनं दुःशकमेव. भट्टोजीदीक्षितस्य कालः एतत् वयं स्पष्टं जानीमः. षोडशशताब्देः उत्तरार्धः भट्टोजीदीक्षितस्य कालः. वैयाकरणसिद्धान्तकौमुदी इति प्रक्रियाग्रन्थः तेन विरचितः. शब्दकौस्तुभम् इति शब्दकौस्तुभः इति अष्टाध्याय्याः वृत्तिग्रन्थः विरचितः. आर्थिकप्रकारे तु वैयाकरणमतोन्मज्जनकारिकाः. एवं व्याकरणस्य सर्वेषु प्रकारेषु भट्टोजीदीक्षितैः ग्रन्थरचना कृता अस्ति. एताः वैयाकरणमतोन्मज्जनकारिकाः आधृत्य कौण्डभट्टः अथवा कोण्डभट्टः अस्माकम् इदानीम् अधीयमानस्य ग्रन्थस्य वैयाकरणभूषणसारस्य कर्ता अयं ग्रन्थद्वयं रचितवान्. तत्र दीक्षितैः विरचितानां कारिकाणां विस्तृतरूपेण व्याख्यानमस्ति वैयाकरणभूषणम् इति ग्रन्थः. बृहद्वैयाकरणभूषणम् इत्यपि उच्यते, वैयाकरणभूषणम् इत्यपि उच्यते. तत्र अत्यन्तं विस्तरेण भट्टोजीदीक्षितस्य कारिकाणां व्याख्यानं कृतमस्ति. तस्यैव ग्रन्थस्य सारभूतः संक्षिप्तः ग्रन्थः अस्ति वैयाकरणभूषणसारः. अत एव भूषणसारः इति, भूषणस्य सारः. सः ग्रन्थः बहु विस्तृतः. तत्र प्रमुखानेव अंशान् स्वीकृत्य संक्षेपेण सिद्धान्तस्य प्रतिपादनं कृतमस्ति वैयाकरणभूषणसारे. अनयोः द्वयोः ग्रन्थयोः, वैयाकरणभूषणस्य वैयाकरणभूषणसारस्य च कर्ता कौण्डभट्टः अथवा कौण्डभट्टः. अस्मिन् ग्रन्थे किं क्रियते? दीक्षितानां वैयाकरणमतोन्मज्जनकारिकासु केवलं सिद्धान्तकथनम्, अयं सिद्धान्तः इत्येव उच्यते. तत्र किं युक्तं, किमयुक्तम् इत्यादि कापि चर्चा न दृश्यते. भूषणे भूषणसारे तु दर्शनान्तरीयपूर्वपक्षोपस्थापनपुरःसरम्. यथा मया पूर्वम् उल्लिखितं, न केवलं व्याकरणशास्त्रे अपि तु मीमांसाशास्त्रे, न्यायशास्त्रे च शब्दविषये बहुविधाः चर्चाः कृताः. तेषां दर्शनानां कस्सिद्धान्तः, तत्र के दोषाः इत्यादि सम्यक् विचार्य अन्ते वैयाकरणसिद्धान्ताः प्रतिपाद्यन्ते कौण्डभट्टेन. अयं कौण्डभट्टः भट्टोजीदीक्षितस्य भ्रातुष्पुत्रः. भट्टोजीदीक्षितस्य भ्राता रङ्गोजीभट्टः, तस्य पुत्रः अयं कौण्डभट्टः अथवा कौण्डभट्टः. तस्य कालः किञ्चिदनन्तरं, भट्टोजीदीक्षितेभ्यः किञ्चिदनन्तरं, सप्तदशशताब्देः आदिमहाभागः कौण्डभट्टस्य कालः. एतौ ग्रन्थौ वैयाकरणभूषणं भूषणसारश्च अधुना आर्थिकग्रन्थेषु अत्यन्तं प्रमुखाः. प्रायेण सर्वत्र यत्र व्याकरणशास्त्रस्य आर्थिक भागः अधीयते तत्र वैयाकरणभूषणसारः एव अधीयते स एव प्रथमः ग्रन्थः प्रायेण आर्थिकः यः वैयाकरणैः अधुना अधीयते या कापि परीक्षा भवतु एम् ए स्तरे व्याकरणशास्त्रे तत्र भूषणसारः अवश्यं भवति भागशः भवति अथवा पूर्णः भवत्येव अत्यन्तम् आदृतः प्रमाणीभूतः अयं ग्रन्थः तस्मादनन्तरं नागेशभट्टः महाभाष्यस्य उद्योत प्रदीपोद्योतव्याख्या अस्ति परिभाषेन्द्रशेखरः लघुशब्देन्द्रशेखरः इत्येवं बहूनां ग्रन्थानां कर्ता नागेशभट्टः तेन त्रयः ग्रन्थाः विरचिताः बृहन्मञ्जूषा लघुमञ्जूषा परमलघुमञ्जूषा नाम्ना एव ज्ञायते या अत्यन्तं बृहती लघ्वी पुनश्च अत्यन्तं लघ्वी इति त्रयः ग्रन्थाः सर्वाः अपि आर्थिकग्रन्थाः वैयाकरणसिद्धान्तप्रतिपादिकाः नागेशभट्टेन विरचिताः तस्य कालः अष्टादशशताब्दि एतेषु त्रिषु ग्रन्थेषु परमलघुमञ्जूषा नागेशकृता वा न वा इत्यत्र कश्चित् सन्देहः विद्यते केचन एतां नागेशकृतां न मन्यन्ते तथापि मञ्जूषात्रयी इति प्रसिद्धिस्तु अस्ति प्रायः नागेशभट्टेनैव विरचिता इति बहूनां मतम् एवम् एते अपि ग्रन्थाः तत्रापि विशिष्य लघुमञ्जूषा परमलघुमञ्जूषा च बहुधा अधीयन्ते एतेषु दिनेषु एवम् आर्थिकग्रन्थेषु स्मर्तव्याः वाक्यपदीयं भट्टोजि भर्तृहरेः वाक्यपदीयं भट्टोजिदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाः कौण्डभट्टस्य वैयाकरणभूषणं भूषणसारः नागेशभट्टविरचिता मञ्जूषात्रयी इति प्रमुखाः दार्शनिकग्रन्थाः व्याकरणशास्त्रे एतद्विज्ञाय अधुना अस्माकम् उद्दिष्टस्य ग्रन्थस्य कर्तुः कौण्डभट्टस्य विषये किञ्चित् जानीमः प्रश्नाः सन्ति वा कौण्डभट्टः अथवा कौण्डभट्टः भट्टोजीदीक्षितस्य भ्रातुष्पुत्रः शिष्यः च भट्टोजीदीक्षितादेव अयं व्याकरणशास्त्रम् अन्यानि च शास्त्राणि अधीतवान् रङ्गोजीभट्टस्य पुत्रः भट्टोजीदीक्षितः रङ्गोजी भट्टश्च भ्रातरौ कः ज्यायान् कः कनीयान् इत्यत्र मतभेदः अस्ति न ज्ञायते तु भ्रातुः पुत्रः इति तु ज्ञायते आन्ध्रदेशीयः अयं विद्वान् केलदी इति संस्थानमस्ति तत्र वीरभद्रः इति कश्चित् नृपः तस्य आस्थाने अयं कौण्डभट्टः आसीत् तेलुगुभाषायां कोण्ड इति नाम प्रसिद्धमस्ति कोण्ड इत्यस्य पर्वतः इत्यर्थः कोण्डय्य इत्यादीनि नामानि अद्यापि आन्ध्रदेशे श्रूयन्ते बहुधा अतः आन्ध्रदेशीयाः कोण्डभट्टः इति वदन्ति अन्ये तु कौण्डभट्टः इति वदन्ति उभयथापि व्यवहारः अस्ति तस्य कालः सप्तदशशतकस्य पूर्वार्धः सः कौण्डभट्टः न केवलं व्याकरणशास्त्रे किन्तु तर्कशास्त्रे अपि तस्य महद्वैदुष्यमासीत् तेन विरचिताः ग्रन्थाः वैयाकरणभूषणं भूषणसारः इति दृष्टम् तर्कप्रदीपः तर्करत्नं पदार्थदीपिका इति त्रयः न्यायशास्त्रग्रन्थाः तेन विरचिताः पदार्थदीपिका इति तर्कसङ्ग्रहसदृशः कश्चित् प्रारम्भिकः न्यायग्रन्थः एवमेव तर्कप्रदीपः तर्करत्नम् इति त्रयः ग्रन्थाः न्यायशास्त्रेऽपि तेन रचिताः व्याकरणशास्त्रे तु भूषणं भूषणसारः वैयाकरणसिद्धान्तदीपिका इति कश्चित् ग्रन्थः नोपलभ्यते स्फोटवादः इति स्फोटमेव आश्रित्य लघुप्रकरणग्रन्थः इत्येवं सप्तग्रन्थाः कौण्डभट्टेन विरचिताः इति ज्ञायन्ते तत्र वैयाकरणभूषणसारः अयं ग्रन्थः भट्टोजीदीक्षितस्य चतुःसप्ततीनां कारिकाणां व्याख्यारूपः कारिकाम् उद्धृत्य तस्य व्याख्यानं प्रस्तूयते भूषणसारे यथा पूर्वम् अवलोकितं वैयाकरणभूषणम् इति यः ग्रन्थः तस्यैव संक्षिप्तः अयं संग्रहः ग्रन्थेऽस्मिन् चतुर्दश अध्यायाः सन्ति वैयाकरणभूषणसारे अध्यायाः अथवा प्रकरणानि चतुर्दश सन्ति आदौ मङ्गलं क्रियते धात्वर्थनिर्णयः इति प्रथमं प्रकरणं ततः लकारार्थनिर्णयः सुवर्थनिर्णयः नामार्थनिर्णयः समासशक्तिनिर्णयः शक्तिनिर्णयः नञ्यर्थनिर्णयः निपातार्थनिर्णयः भावप्रत्ययार्थनिर्णयः देवताप्रत्ययार्थनिर्णयः अभेदैकत्वसङ्ख्यानिर्णयः संख्याविवक्षानिर्णयः क्त्वाद्यर्थनिर्णयः अन्ते च स्फोटनिरूपणम् इत्येवं चतुर्दश प्रकरणानि अस्मिन् ग्रन्थे वैयाकरणभूषणसारे सन्ति धात्वर्थनिर्णयादारभ्य भिन्नानां प्रकृतीनां प्रत्ययानां च अर्थाः निर्णीयन्ते अन्ते तु स्फोटः नामकः कति प्रभेदाः तत्र कः सिद्धान्तः इत्यादि उच्यते एवं चतुर्दश अध्यायाः सन्ति तत्र भवतां पाठ्यक्रमे केवलं धात्वर्थनिर्णयः इति एक एव अध्यायः अस्ति किन्तु तेन बहु लघुभागः अध्येतव्यः इति न मन्तव्यम् यतोहि यदा कारिकाणां सङ्ख्यां पश्यामः अत्र कोष्ठके यदस्ति तत्तु कंसेषु विद्यमानाः कारिकाः भूषणसारः दीक्षितानां कारिकाणां व्याख्यारूपः तत्र धात्वर्थनिर्णये एव
कारिकाः इत्युक्ते
भट्टोजीदीक्षितैः विरचिताः याः वैयाकरणमतोन्मज्जनकारिकाः चतुस्सप्ततिः तासां व्याख्यानमेव अस्मिन् ग्रन्थे क्रियते तत्र द्वाविंशतिः कारिकाः धात्वर्थनिर्णये एव सन्ति सो द मेजारिटि इस् धात्वर्थनिर्णयः अयमेव इदमेव प्रकरणं विस्तारदृष्ट्या तथा विषयदृष्ट्या च अस्मिन् ग्रन्थे प्रमुखं यतोहि अस्मिन्नेव प्रकरणे वैयाकरणानां प्रमुखाः बहवः सिद्धान्ताः प्रतिपाद्यन्ते कारिकाणां सङ्ख्या च अधिका अस्ति अन्येषु प्रकरणेषु पश्यामश्चेत् कारिकाणां सङ्ख्या न्यूना स्फोटनिरूपणे सन्ति बह्व्यः कारिकाः तदतिरिच्य अन्यानि प्रकरणानि वस्तुतः लघून्येव बृहत्तमं तु धात्वर्थनिर्णयः एव तत् प्रकरणम् अस्माभिः अस्मिन् पाठे अधीयते वैयाकरणभूषणसारः इति ग्रन्थः तस्य यद्यपि सः अर्वाचीनः ग्रन्थः प्रायः शतकत्रयमेव अतीतं तस्य रचनायाः अनन्तरं तथापि बह्व्यः व्याख्याः रचिताः सन्ति यतोहि अयमेव प्रमुखः ग्रन्थः विद्यार्थिभिः अथवा छात्रैः अधीयते इति कारणेन बह्व्यः व्याख्याः विरचितास्सन्ति भूषणसारस्य विषये तत्र प्राचीनाः व्याख्याः सन्ति रत्नप्रभा इति कृष्णमित्रेण दुर्बलाचार्यः इत्यपि तस्य नाम विरचित रत्नप्रभा क्षम्यताम् रत्नप्रभा नाम्नी काचन टीका विद्यते दर्पणः इति व्याख्यानम् अत्यन्तं प्रसिद्धमस्ति बहुषु भूषणसारग्रन्थेषु इदं व्याख्यानं दृश्यते हरिवल्लभेन विरचितः तर्कप्रधाना व्याख्या कान्तिः इति मन्नुदेवेन विरचिता काचिद्व्याख्या भागशः एव उपलभ्यते काशिका इति व्याख्यानं महाराष्ट्रीयेन हरिरामकाले इति महोदयेन विरचिता इत्येताः चतस्रः व्याख्याः प्राचीनाः अर्वाचीनाः नाम गत शतके अपि बह्व्यः व्याख्याः विरचिताः सन्ति भूषणसारस्य। तत्र सरला इति गोपालशास्त्री नेने महोदयेन विरचिता व्याख्या अन्वर्थनाम्नी सरला एव अस्ति। प्रभा बालकृष्णपञ्चोली महोदयेन विरचिता। प्रभाव्याख्यानं दर्पणव्याख्यानम् इति व्याख्याद्वयेन सम्मिलितः भूषणसारग्रन्थः अधुनापि अस्ति, इत्युक्ते उपलभ्यते, स्टिल् अवेलेबल् इन् प्रिण्ट् बिकास् मोस्ट् आफ् दीस् हेव् गान् औट् आफ् प्रिण्ट्, बट् द वन् वित् प्रभा अण्ड् दर्पण इस् अवेलेबल् फ्रम् ऐ थिङ्क् चौकम्ब। सुबोधिनी इति व्याख्या सम्यक् चौकम्ब ओडदिल्ले अद्
चौकम्ब ओडदिल्ल
मोतिलाल ओके सरि इट्स् ओके। शङ्करी इति व्याख्या अस्ति शङ्करशास्त्री इति महोदयेन विरचिता। भीमसेनशास्त्री महोदयः भैमी व्याख्यां रचितवान्। तत्त्वदर्शिनी इति व्याख्या पेरी सूर्यनारायणशास्त्री महोदयेन विरचिता। वस्तुतः यद्यपि बह्व्यः व्याख्याः सन्ति तथापि ग्रन्थस्य प्रथमतया यदा अध्ययनं क्रियते तदा प्रायः सर्वाः अपि व्याख्याः दुर्बोधाः एव भवन्ति। यतोहि सर्वत्र न केवलं व्याकरणशास्त्रस्य अपि तु अन्यशास्त्राणां विचारः पुनश्च पूर्वपक्षः सिद्धान्तः इति मोस्ट् आफ् द व्याख्यानास् आर् एक्चुली प्रिटी काम्प्लिकेटेड्। मया अस्मिन् पाठे पेरीसूर्यनारायणशास्त्रिभिः विरचितां तत्त्वदर्शिनी व्याख्याम् आश्रित्य प्रायेण पाठः क्रियते। तत्र इदं स्मर्तव्यं सर्वेषु व्याख्यानेषु बहूनि मतानि प्रतिपाद्यन्ते, प्रत्येकं कारिकायाः वा प्रत्येकं पङ्क्तेः वा द्वित्रविधाः अर्थाः दीयन्ते, तत्र कः अर्थः उचितः कः नोचितः इत्यादि विचार्यते। अस्मिन् पाठे प्रथमतया छात्रैः अयं ग्रन्थः अधीयते इति कारणेन मया केवलं सरलतया यावच्छक्ति सरलतया प्रमुखः यः अर्थः भवति तदेव प्रतिपाद्यते, मतभेदाः प्रायेण न प्रतिपाद्यन्ते। तत्रापि अर्थप्रतिपादने प्रायेण सूर्यनारायणशास्त्रिभिः विरचितां तत्त्वदर्शिनी व्याख्याम् आश्रित्य प्रतिपादयितुम् अहं प्रयते। इदं व्याख्यानम् अधुना नोपलभ्यते, इट् इस् औट् आफ् प्रिण्ट्, मम समीपे अपि जेराक्स् प्रतिकृतिः एव अस्ति, तस्याः आधारेण अहं प्रतिपादयामि। मया यद्यदुच्यते तत्सर्वमपि अत्र लभ्यते एव। Whatever I say will be in the slide.
Na vandu prabha darpana la vichittad paravaliyaka illa na tattvadarshini adu
paravaliyaka tattvadarshini ipo kadakyadu, you will not get it. Ataeva maya tat prabha darpana uktam, but my suggestion is starting la prabhavu darpanavu padika venda, initially at least. Later on you can go and read it, but initially it is it complicates things beyond necessary. ोदु आपाततः कः अर्थः इति ज्ञायते चेत् अलम्, अनन्तरं पुनः पुनः पठनेनैव, शास्त्रं सर्वदा तथैव, एकवारं पठनेन न किञ्चिदवगम्यते। अतः प्रथमवारं संक्षिप्ततया किम् उच्यते, कः सिद्धान्तः इति जानीमः, पुनः पठने निश्चयेन व्याख्याः उपयोगिन्यः भवन्ति। यू शुड् आल्वेस् हेव् द बुक् बिकास् पडिक्या पडिक्या तेरियु, you will learn to appreciate it. Adla enna padikano enna padike kudadu ngiradu theriyum, so ippodeka irukatum, you use it for the moola, moolam refer pandrathukku eppadiyum venum. Any additional points in the notes la irukum, so you don't have to worry. For the exam we will do with that. Parama you can continue with the studies.
So tattvadarshini kayile irukkanum illaya?
தத்துவதர்ஷினியும் இல்ல, ஆக்சுவலி வேண்டாம், ஏன்னா தத்துவதர்ஷினி இஸ் ஆல்சோ வெரி காம்ப்ளிகேட்டட், நான் அதையும் ஃபுல்லா சொல்ல போறதில்ல. ஐல் ஒன்லி டேக் ஒன் ஆர் டூ பாயிண்ட்ஸ் ஃப்ரம் தத்துவதர்ஷினி அண்ட் டெல், அண்ட் ஐ வில் புட் தோஸ் பாயிண்ட்ஸ் இன் த ஸ்லைடு, ஸோ டோன்ட் கோ ஃபார் தத்துவதர்ஷினி ஆல்சோ, ஏன்னா அதுவும் ஃபுல்லா படிச்சு புரிஞ்சுக்க முடியாது, பிகாஸ் இட்ஸ் அகைன் அண்ட் அட்வான்ஸ் கமெண்ட். ஸோ இப்போதைக்கு யூ யூஸ் யுவர் மூல கிரந்தா அண்ட் த நோட்ஸ் விச் ஆர் தேர் ஹியர். நான் இந்த ஸ்லைட்ஸ் எல்லாம் ஐ வில் சென்ட் இட் PDF பண்ணி அப்லோட் பண்ணுவேன். சோ யூ கேன் யூஸ் போத் அண்ட் த இது அண்ட் யுவர் மூல கிரந்தம். தட்ஸ் எனஃப். இதானீம் கேவலம் மங்களஸ்லோகம் ஏகவாரம் பஷ்யாமஹ. பூஷணசாரஸ்ய அனுவதது. ஸ்ரீலக்ஷ்மீ ரமணம் நௌமே. ஸ்ரீலக்ஷ்மீ ரமணம் நௌமே.
ஸ்ரீலக்ஷ்மீ ரமணம் நௌமே.
கௌரி ரமண ரூபிணம்.
கௌரி ரமண ரூபிணம்.
ஸ்போட ரூபம் யத சர்வம். அத்ய எதாவதா அலம். அக்ரிம வர்க்கே க்ரந்தஸ்ய அத்யயனஸ்ய ஆரம்பம் குர்மஹ. புனஹ மங்களமுச்சார்ய சமாப்திம் குர்மஹ. ஸ்ரீலக்ஷ்மீ ரமணம் நௌமி கௌரி ரமண ரூபிணம் ஸ்போட ரூபம் யத சர்வம் ஜகதே தத்விவர்த்ததே.